श्री भगवान उवाच मयि अवेश्या मनो ये मां नित्ययुक्ता उपासते श्रद्धया परयोपेतस्थे मे युक्तत्वमामता ये त्वक्षरमनिर्देशमभ्यक्तं भर्युपासते सर्वत्र गमचिन्त्यं च कुतस्थं अच्छलं ध्रुवं सन्नियं यन्द्रियाग्रामं सर्वत्र समबुधय ते प्राप्नुवन्ति ममेव सर्वभूता हिते रता क्लेशो निकतरस्थेशम् अव्यक्ता सक्तचेतसम् अव्यक्ता हि गतिर्दुःखं देहवद्भिरवप्यते ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्परा अनन्येनैव योगेन मां जयन्तु उपासते तेषाम् अहं समुद्धर्ता मृत्युसंसारसागरा भवामि न चिरपार्थ मयि अभीष्टचेतसा मयि एव मन आरत्स्व मयि बुद्धिं निवेशय निवासिष्यसि मयि एव अत ऊर्ध्वं न संशयः अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन ततो मामिच्छप्तुं धनञ्जय अभ्यासेऽप्यसमर्थोऽसि मत्कर्म परमो भव मदर्थम् अपि कर्माणि कुर्वन् सिद्धिं वक्ष्यसि अथाथारप्यसक्तोऽसि कर्तुं मद्योगमाश्रित सर्वकर्म फलत्यागं तथा कुरु यथात्मवान् श्रेयो हि ज्ञानमभ्यासात् ज्ञानज्ञानं विशिष्यते ध्यानत्कर्म फलत्यागश्च्यागच्छन्तिरनन्तरा अदिष्टात् सर्वभूतानां मैत्रकरुणा एव च निर्ममो निरहङ्कार समदुःखसुखक्षमी सन्तुष्ट सततं योगी यथात्मा दृढनिश्चय मयि अर्पितमनोबुधिर्यो मद्भक्तः स मे प्रियः यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः अनपेक्षा शुचिर्दक्षा उदासीन्नो गतव्यतः सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः यो न हृषति न द्वेष्टि न शोचति न कंसति शुभाशुभा परित्यागी भक्तिमान्यः स मे प्रिय समशत्रो च मित्रे च तथा मनापमानयोः शीतोष्ण सुखदुःखेषु समासङ्गविवर्जित तुर्यानिन्दस्तुतिर्मौनि सन्तुष्टो येन केनचित् अनिकेता स्थिरं मत्तिर्भक्तिमन्ये प्रियो नर ये तु धर्ममृतमिदं यथोक्तं भर्युपासते श्रद्धानं मत्परम भक्तस्थे स्थिर मे प्रिया